नमस्सर्वेभ्यः। प्रथमं मङ्गलाचरणश्लोकः। ओं गुणातीतोऽपि सः त्रिगुणसचिवस्त्रक्षरमया त्रिमूर्तिरियसर्गस्थितिविलयकर्माणि तनुते कृपापारावार परमगति एकस्त्रिजगतां नमस्तस्मै कस्मै चिदमितमहिम्ने पुरविते। यथा पूर्वं किञ्चिदिव पुनर्स्मरणरूपेण गतवर्गे यत् सर्वं परिशीलितं तत् संक्षिप्तरूपेण पश्यामः, तदनन्तरम् अग्रे सरामः। अस्माभिः तत्र गुणविभागः उत्क्षेपणापेक्षण आकुञ्चनप्रसारणगमनानि पञ्चकर्माणि तत्र कर्माणि तत्र अधीतानि। तत्र लक्षणे संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म कर्मत्वजातम् अथवा इति उक्तमासीत्। तत्र लक्षण समन्वयदलसार्थक्यादिकम् अस्माभिः दृष्टं। संयोगासमवायिकारणम् एव इत्येतावन्मात्र उक्तौ, संयोगे अतिव्याप्तिः भवति इति कृत्वा संयोगभिन्नत्वं देयम् इति अस्माभिः दृष्टं। नाम तत्र संयोगोऽपि संयोगं प्रति असमवायिकारणं भवति, यथा हस्तपुस्तकसंयोगः कायपुस्तकसंयोगं प्रति असमवायिकारणं भवति इति कृत्वा तत्र अतिव्याप्ति निवारणार्थं संयोगभिन्नत्वदलं तत्र दलस्य निवेशनं कृतं। संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वं। तदनन्तरं तत्र भ्रमणादीनामपि गमने एव अन्तर्भावः इति दृष्टः। तदनन्तरम् अस्माभिः दृष्टं तत्र सामान्यं नाम किम् इति अस्माभिः दृष्टं। परन्तु तत्र सामान्यानां तत्र अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वं तत्र परसामान्यम् अपरसामान्यम् इत्यादिकं सर्वमपि दृष्टं। परन्तु तत्र अहं चिन्तयामि लक्षणम् अस्माभिः न दृष्टं, लक्षणं न कृतम् इति मन्ये। लक्षणं सरलमेव अस्ति, नित्यत्वे सति अनेकसमवेतत्वं सामान्यस्य लक्षणं भवति। नित्यत्वे सति अनेकसमवेतत्वं तत्र सामान्यस्य लक्षणम्। अत्र दलसार्थक्यं कथं द्रष्टव्यम् इत्युक्ते तत्र तत्र घटत्वादिसामान्यं नित्यं भवति, तर्हि तत्र सामान्यादिषु नित्यत्वं वर्तते एव। अपि च घटत्वम् अनेकेषु घटेषु वर्तते, नाम घटत्वम् अनेकेषु अनेकसमवेतत्वम् उक्तमासीत्, तर्हि अनेकेषु समवेतं भवति घटत्वम्। अत्र अनेकसमवेतत्वम् अपि भवति, घटत्वं न कदापि विनश्यति, जातिः सर्वदैव नित्या भवति इति कृत्वा नित्यत्वे सति अनेकसमवेतत्वं तत्र लक्षणसमन्वायः भवति। समवेतत्वं नाम समवायसम्बन्धेन तिष्ठति इति अर्थः समवेतत्वं। तत्र केवलं तत्र नित्यत्वे सति अनेकसमवेतत्वम् इति उक्तम्। तत्र केवलं नित्यत्वमेव उक्तं चेत्, नाम तत्र विशेषणदलमेव उपादीयते चेत्, विशेष्यदलं यदि न स्वीक्रियते चेत् किं भवति इत्युक्ते नित्यत्वम् अन्यत्रापि अस्ति, गगनादीनामपि नित्यत्वम् अस्ति कृत्वा तत्र गगने अतिव्याप्तं भवति। नाम गगनम् अपि तत्र सामान्यम् अस्ति इति भवति, अतिव्याप्तिः भवति। तत्र पुनः नित्यत्वे सति नित्यत्वं किमर्थम् आवश्यकम् इदानीं दृष्टं। नित्यत्वं तत् गगने अपि अस्ति, केवलं नित्यत्वम् इत्येतावन्मात्र उक्तौ। तत्र अनित्यत्वं परमाणुषु गगनादीनामपि अस्ति इति कृत्वा तत्र अतिव्याप्तिनिवारणार्थं तत्र न केवलं नित्यत्वम् अपि तु अनेकसमवेतत्वम् उक्तं। पुनः अत्र नाम गगनादीनां तत्र अनेकसमवेतत्वं नास्ति। अनेकसमवेतत्वं केवलम् उक्तं चेत् किं भवति इत्युक्ते तत्र घटादिषु अतिव्याप्तं भवति, अनेकसं केवलं नित्यत्वे सति अनेकसमवेतत्वम् इति उक्तमासीत्। नित्यत्वं किमर्थम् आवश्यकं तत्र दृष्टं, गगनादौ अतिव्याप्तं भवति यदि नित्यत्वं न स्वीक्रियते चेत्, तर्हि अत्र अनेकसमवेतत्वं किमर्थम् आवश्यकम् इत्युक्ते नाम तत्र तत्र केवलम् अनेकसमवेतत्वम् एतावन्मात्र उक्तौ किं भवति इत्युक्ते तत्र घटादिषु अतिव्याप्तिः भवति। कुतः इति चेत् घटः अनेकसमवेतः भवति, घटे घटः कपाले कपालद्वयोः समवेतः भवति, पटः पटं तत्र तन्तुषु समवेतो तत्र बहुषु तन्तुषु समवेतं भवतीति कृत्वा तत्र अनेकसमवेतत्वं घटादिषु अपि वर्तते, परन्तु नित्यत्वं घटादिषु न वर्तते. अरे न अनेकसमवेतत्वम् इति एतावन्मात्र उक्तौ घटादिषु अतिव्याप्तं भवति, अतः नित्यत्वं निवेशनीयं. तत्र तदेव तत्र लक्षणम् अस्ति, सरलमेव अस्ति. तदनन्तरम् अस्माभिः दृष्टं तत्र विशेषाणां विषये, नाम नित्यद्रव्यवृत्तयो विशेषास्तु अनन्ता एव. अस्माभिः तत्र विद्याधरी अध्ययनावसरे एव परिशीलितं तत्र विशेषद्रव्यस्य, नाम विशेषस्य द्रव्यस्य न विशेषस्य, विशेषभिन्नपदार्थः द्रव्यं नास्ति, विशेषस्य किमर्थं तत्र चिन्तनं करणीयं, विशेषस्य आवश्यकता कथम् इत्युक्ते तत्र द्वयोः तत्र अवयविनोः, नाम तत्र एकः अवयवी तत्र अन्यस्मात् अवयविनः कथं भिद्यते इत्युक्ते अवयवभेदात्, नाम तत्र एतद् घटः तस्मात् घटात् कथं भिद्यते इत्युक्ते एतत् घट अवयवकपालभेदात् इति उच्यते. नाम एतस्य घटस्य अवयवाः तत्र अवयवौ द्वौ कपालौ भिद्येते इति कृत्वा घटभेदो अस्ति. पुनः कपालः, कपालस्य भेदः कथम्, अन्यस्मात् कपालात् एषः कपालः कथं भिद्यते इति पुनः कपाल अवयवं स्वीकृत्य एवं परम्पराधारा प्रचलति. कियत्पर्यन्तं प्रचलति इत्युक्ते यावत्पर्यन्तं तत्र परमाणुपर्यन्तं प्रचलति. तर्हि परन्तु तत्र इदानीं परमाणुद्वयम्, एषः परमाणु अन्यस्मात् परमाणोः कथं भिद्यते इति प्रश्नः उदेति. इदानीम् अवयवभेदात् इति वक्तुं न शक्यं. कुतः इति चेत् नीरवयवः भवति परमाणुः, तर्हि परमाणुः कथं भिद्यते इत्युक्ते तत्र तत्र चिन्तनं किं कृतम् इत्युक्ते विशेषनामकं पदार्थं स्वीकृत्य विशेष एतस्मिन् परमाणौ विशेषः अस्ति इति कृत्वा विशेषः केवलं तत्र एकस्मिन्नेव वस्तूनि भवति सर्वदैव, एकस्मिन्नेव तत्र परमाणौ भवति विशेषः, अन्यस्मिन् परमाणौ न भवति. तत्र स्वतो व्यावृत्तपदार्थः विशेषः केवलं तत्र व्यक्तिरूपेण एकमेव भवति. अतः विशेषनामकः पदार्थः अस्ति इति कृत्वा तत्र परमाणोः भेदः साध्यते. एषः विशेषनामकः पदार्थः स्वीक्रियते इति कृत्वा एतेषां दार्शनिकानां नाम तत्र वैशेषिकाः इति नाम जातः. नाम वैशेषिकाः किमर्थम् उच्यते इत्युक्ते विशेषनामकस्य पदार्थस्य तेषाम् अभिमतत्वात् वैशेषिकाः इति तत्र व्यपदेशभाग् भवन्ति इति अर्थः. तत्र सर्वत्रापि नित्यद्रव्येषु, न केवलं परमाणुषु, नाम तत्र नित्यद्रव्येषु भवति. कुतः इति चेत् तत्र आकाश आत्मादिकं नित्यद्रव्याणि सन्ति, तेषामपि अवयवाः न भवन्ति, नीरवयवाः इति कृत्वा पुनः भेदसाधनार्थं विशेषनामकस्य पदार्थस्य आवश्यकता भवति. तत्र अस्तु तावदेव वदामः. तर्हि तत्र किमस्ति इत्युक्ते आत्मा, आत्मत्वजातिरपि अस्ति एव, मनस्त्वजाति अपि अस्ति, परन्तु तत्र विशेषनामकः पदार्थोऽपि वर्तते इति चिन्तनं करणीयम्. अस्तु तर्हि अग्रे सरामः
महोदय.
क्षम्यताम्,
एकः प्रश्नः जातिविषये, सामान्यस्य विषये. भवता नित्यत्वम् इति उक्तं खलु, जातौ जातिः नित्या इति, परन्तु घटत्वं पटत्वम् इति जातिव्यक्तयः तु न नित्याः.
सत्यमेव, सत्यमेव.
तथापि जातिः नित्या,
जातिनित्या, सत्यम्.
इत्युक्ते यः कोऽपि पदार्थः एतावता न जातः, तस्य आविष्कारः न जातः इति चिन्तयतु, तत्रापि तस्मिन् विद्यमाना जातिः नित्या इति स्वीक्रियते नैयायिकैः.
तथैव स्वीक्रियते. किं वदन्ति इत्युक्ते तत्र अन्यस्मिन् जगति अथवा संसारे अन्यस्मिन् कल्पे भवत्येव आसीदेव एवमेवं चिन्तनं क्रियते।
ओ अस्तु, धन्यवादः महोदय।
अस्तु तर्हि समाप्य अत्र आम्
तत्र नित्य विशेषस्य विषये एकः प्रश्नः, यदि नित्यपदार्थः आत्मा इव अनेकः अस्ति चेत् तत्र विशेषस्य आवश्यकता अस्ति प्रत्येकम् आत्मा भिन्नम् इति निरूपणार्थं, किन्तु आकाशः तु एकः, तत्र विशेषस्य आवश्यकता का?
नाम तत्र अन्यस्मात् न केवलं सजातीयेभ्यः व्यावर्तनं, तादृशं चिन्तनं नास्ति तत्र। आकाशस्य विषये किं चिन्तनम् इत्युक्ते अन्येभ्यः कथं वा व्यावृत्तो भवेत्, तत्र जातिः न स्वीक्रियते, आकाशे जातिः न स्वीक्रियते। तर्हि जातिः न स्वीक्रियते चेत् व्यावर्तकः कः इति प्रश्नः उदेति। तर्हि व्यावर्तकः कोऽपि भवेत्, अन्यस्मात् व्यावर्तनम् आवश्यकं, तर्हि केन व्यावर्त्यते इत्युक्ते विशेषेण व्यावर्त्यते इति चिन्तनम्।
व्यावर्तकं तत्र शब्दः एव खलु जि?
न, व्यावर्तकं शब्दः नास्ति, शब्दः गुणः, शब्दः तत्र आकाशस्य गुणः। परन्तु किं भवति इत्युक्ते गुणस्य विषये किं चिन्तनं, गुणस्य गुणात् पूर्वं द्रव्यं भवेत्, सर्वदैव चिन्तनं तथा भवति। तर्हि गुणात् पूर्वं द्रव्यम् अस्ति चेत् तत्र द्रव्यस्य को वा व्यावर्तकः? यदा गुणः न भवति तदा द्रव्यस्य व्यावर्तकः कोऽपि भवति वा न वा इति प्रश्नः। तर्हि व्यावर्तकः भवत्येव। कः व्यावर्तकः इत्युक्ते विशेषः एव व्यावर्तकः इदानीम् एवं चिन्तनम्। महोदय तत्र स्पष्टमस्ति वा? भवतः प्रश्नः आसीत् तत्र व्यक्तयः बहवः सन्ति चेदेव विशेषस्य आवश्यकता, परन्तु चिन्तनं तादृशं नास्ति।
महोदय व्यावर्तकः
नाम अत्र व्यावर्तकः नाम केवलं तत्र अन्येभ्यः भिद्यते, भिद्यते नाम तत्र पृथक् अस्ति इति किञ्चित् सामान्यरूपेण वदामि, तत्र अन्येभ्यः पृथक् अस्ति, भिन्नः पदार्थः अस्ति इति कथं ज्ञायते इति इत्येव चिन्तनम्।
ओ अवगतं महोदय। तत्र यदापि द्रव्येषु आकाशः भिन्नः इति नैयायिकाः वदन्ति, तत् कथं साधितम् इत्युक्ते विशेषम् इति पदार्थं स्वीकृत्य एव
अवगतं। सत्यं तत्र अन्ये द्रव्यव्यक्तयः सन्ति, द्रव्य तत्र व्यक्तिभ्यः कथं वा भेदसाधनम् इत्युक्ते विशेषः अस्ति इति कृत्वा भेदसाधनम्।
महोदय इत्युक्ते अपि च काले दिशि अपि अस्ति इति खलु विशेष इति पद?
सत्यमेव एवम्। अस्तु तर्हि अग्रेसरामः।
महोदय अत्र सरला भगिन्यः प्रश्नः आसीत् इति भाति,
प्रश्नः अस्ति वा?
व्यावर्तकं न भिद्यते इति कथम् अन्यात् भिद्यते इति अर्थं भवति?
अत्र व्यावर्तकम् इति कस्मिन् अर्थे तत्र प्रयुक्तः इत्युक्ते विवक्षा, अत्र वेदः एव विवक्षा अस्ति इति, कथम् इति नास्ति। व्यावर्तकं नाम अत्र वेदः कथं साध्यते नाम यथा अस्माभिः दृष्टम्, एकः घट अन्यस्मात् घटात् कथं भिन्नः, कथं व्यावर्त्यते, कथं वा भिन्नः इत्युक्ते अवयवभेदात् यथा उक्तं तथैव अत्र आकाशः अन्यस्मात् कथं भिद्यते इत्युक्ते विशेषात् इति चिन्तनं। तदेव प्रश्नः आसीत् वा? प्रश्नः न सम्यक् अवगतः इति।
अस्तु महोदय, अवगच्छामि इदानीम्।
अस्तु अस्तु, इदानीं समवायस्तु एक एव इति नवदशे पूते अस्ति, समवायस्तु एक एव। दीपिकायां किम् उक्तम् इत्युक्ते समवायस्य भेदो नास्ति इत्याह समवायस्तु इति। तर्हि इदानीं किं दीपिकाकार तत्र ग्रन्थकारः इदानीं किं वदति इत्युक्ते समवायस्य भेदो नास्ति इति वदति। इदानीं प्रश्नः, सत्यमस्ति वा एतत् वाक्यम्? कोऽपि वक्तुम् इच्छति वा, एतद् वाक्यं सत्यमस्ति वा, समवायस्य भेदः अस्ति वा न वा? भेदः अस्ति एव, अस्तु. तर्हि इदानीं ग्रन्थकारः किमर्थं वदति समवायस्य भेदो नास्ति? नाम तत्र घटे समवायभेदः वर्तते. कुतः इति चेत् घटः समवायः न इति अस्माकं प्रतीतिः. वयं जानीमः घटः समवायः न, अथवा कपालः समवायः न. तर्हि समवायभेदः घटे आगतः, तादात्म्यसम्बन्धावच्छिन्नसमवायप्रतियोगिकभेदः घटे आगतः. तर्हि समवायस्य भेदो नास्ति इति ग्रन्थकारस्य कथनेन तत्र कथनस्य को वा अर्थः, विवक्षा का अत्र इति चिन्तनं करणीयम्. इति समवायस्य भेदः अस्ति इति तु ज्ञातमेव खलु, इति सरलमेव अस्ति. नाम तत्र भेद नाम तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिक अभावः, वयं जानीमः एव तत्र अन्योन्याभावः. समवायस्य अन्योन्याभावः कुत्र वर्तते इत्युक्ते घटे वर्तते, पटे वर्तते, सर्वत्र समवायभिन्नेषु सर्वेषु अपि वर्तते. तथापि ग्रन्थकारः वदति समवायस्य भेदो नास्ति. तर्हि तस्य कथनस्य आशयः कः? इदानीं ज्ञायते खलु तत्र किमर्थं समवायस्य भेदो नास्ति इति. प्रथमचरणे यदि झटिति पश्यामः चेत् समवायस्य भेदः अस्ति एव घटादिषु इत्यतु तत् सर्वमपि ज्ञायते खलु. अग्रे सरामः तदनन्तरम्. अस्तु, तर्हि इदानीं किं भवति, आम् इदानीं पश्यामः इदानीम् अभावस्य विषये किञ्चिदिव पश्यामः. इदानीं घटः अस्ति अपि तु भूतलम् अस्ति. इदानीं घटवत् भूतलम् इति वदामः, घटवत् भूतलम्. अत्र इदानीं घटवत् भूतलम् अस्ति, इदानीं घटाभावः न. घटस्य अपसारणं क्रियते चेत् अत्र भूतले अभावः आगतः. तर्हि किं वदामः अत्र इत्युक्ते अभावस्य स्वरूपं कीदृशम् इत्युक्ते, एतत् सर्वम् अस्माभिः परिशीलितमेव पूर्वं, केवलं पुनर्स्मरणरूपेण वदामि. नाम घटप्रतियोगिक भूतल अनुयोगिक अभावः इति उच्यते. भूतलम् अनुयोगी, अधिकरणस्यापि अनुयोगी संज्ञा भवति, अभावस्यापि अनुयोगी संज्ञा भवति इति अस्माभिः तत्र विद्याधरीग्रन्थ अध्ययनावसरे दृष्टमेव. अनुयोगी अत्र नाम अभावः, अधिकरणस्य अभावस्य यद् अधिकरणं तदपि तस्यापि अनुयोगी संज्ञा भवति. तर्हि इदानीं घटप्रतियोगिक अभावस्य कीदृशं निरूपणं कीदृशं भवति इत्युक्ते घटप्रतियोगिक भूतल अनुयोगिक अभावः इति उच्यते. घटप्रतियोगिक भूतल अनुयोगिक अभावः. अस्तु, तर्हि इदानीं तत्र तत्र अत्यन्त अभावस्थले एवं दृष्टम्. इदानीम् अन्योन्याभावस्थले किं भवति इत्युक्ते अत्र पश्यामः घटः समवायः न इति. घटः समवायः न नाम घटे समवायस्य अभावः घटे वर्तते. कीदृश अभावः इत्युक्ते तादात्म्यसम्बन्धार्थ नाम अन्योन्याभावः नाम भेदः. तर्हि समवायभेदः घटे वर्तते, भेद एव अन्योन्याभावः, अन्योन्याभावः भेद एव. तर्हि इदानीं यथा पूर्वं तत्र घट अनुयोगिक नाम भूतल अनुयोगिक घटप्रतियोगिक अभावः तत्र अत्यन्त अभावस्थले यथा उक्तः, अत्र घटे समवायस्य यः भेदः अथवा अन्योन्य अभावः अस्ति तस्य निरूपणं कथं भवति इत्युक्ते पुनः किं वदामः इत्युक्ते घट अनुयोगिक समवायप्रतियोगिक अभावः. घट अनुयोगिक समवाय तत्र भेदस्य अधिकरणं घटः, तत्र घट अधिकरणस्यापि अनुयोगी संज्ञा भवति. तर्हि घट अनुयोगिक समवायप्रतियोगिक अभावः. अस्तु, इदानीं ग्रन्थकारस्य आशयः कः इत्युक्ते तत्र समवायः 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 न नाम तत्र द्वौ समवायव्यक्ति इति चिन्तयामः द्वौ तत्र समवायव्यक्ति द्वयं तत्र प्रथमसमवायव्यक्ति द्वितीयसमवायव्यक्ति द्वितीयासमवायव्यक्ति तर्हि प्रथमसमवायः यः अस्ति सः द्वितीयसमवायः न इति तत्र तादृशभेदः तादृशप्रथमसमवाये द्वितीयसमवायस्य अभावः नाम भेदः अस्ति वा न वा इत्युक्ते ग्रन्थकारः किं वदति इत्युक्ते असम्भवम् एतत् किमर्थम् इत्युक्ते समवायस्तु एक एव समवायस्तु एक एव अतः समवाय अनुयोगिक समवायप्रतियोगिकभेदः नास्ति इति ग्रन्थकारस्य आशयः समवायस्य भेदः नास्ति इति कथनात् किं वक्तुम् इच्छति इत्युक्ते समवाय अनुयोगिक समवायप्रतियोगिकभेदः नास्ति एव इति वक्तुम् इच्छति इति एतत् स्पष्टमस्ति वा अत्र कोऽपि प्रश्नः अस्ति वा
आम् महोदय स्पष्टम्
आम् अस्तु तर्हि अग्रे सरामः
महोदय
आम्
अत्रापि एकः इति संख्यां न सूचयति अपरं किमपि खलु यथा अपेक्षा
सत्यं सत्यमेव सत्यं तत्र एकस्यापि तत्र सर्वमिदानीं न स्मर्यते तत्र तत्र भिन्नम् अस्ति स्वरूपम् इदानीं न स्मर्यते परन्तु सङ्ख्यारूपं न
महोदय
आम् आम्
तत्रापि इति इदानीं समवायः इति पदार्थः अन्यपदार्थेभ्यः भिन्नः इति कथं निरूपयति विशेषः इति तत्र न स्वीकर्तुं शक्यते इत्युक्ते द्रव्यवृत्तित्वमेव अस्ति विशेषस्य
आम् तत्र तत् सत्यमेव द्रव्याणामेव तत्र व्यावर्तकत्वं विशेषेण स्वीक्रियते समवायस्तु किम् उच्यते इत्युक्ते तत्र द्रव्यविभागक उपाधिः अस्ति इति कृत्वा द्रव्यभेदकः एव केवलं तत्र विशेषः तत्रापि द्रव्यस्य विषये एव विशेषस्य अत्र
समवायः अन्या पदे अन्येभ्यः पदार्थेभ्यः भिन्नः इति कथं निरूपयति
तत् किम् उच्यते इत्युक्ते तत्र द्रव्यविभाजक उपाधिः अस्ति अत्र इति उच्यते तत्र पदार्थत्वं किम् अस्ति इति अस्माभिः दृष्टमासीत् खलु पदार्थत्वं नाम तत्र द्रव्यविभाजक उपाधयः कति सन्ति इत्युक्ते द्रव्यत्वं गुणत्वं द्रव्यगुणकर्म कर्मत्वं तत्र सामान्यमपि अस्ति परन्तु सामान्यसामान्यं न भवति परन्तु सामान्यत्वम् अस्ति इति तत्र पदार्थेषु विभागे तत्र विशेषस्य आवश्यकता नास्ति इति मम अवगमनं महोदय परन्तु किञ्चित् चिन्तनं तथा मम अवगमनम् अस्ति किञ्चित् चिन्तनं करणीयम्
अस्तु महोदय
आं परन्तु द्रव्येषु भेदसाधकत्वं विशेषेषु वर्तते इति चिन्तनम् अस्तु समीचीनः प्रश्नः अस्तु इदानीं किम् अस्माकं चिन्तनमासीत् समवायस्य भेदः नास्ति अस्ति इदानीम् अभावस्य विषयः एवं कोऽपि वदति वा तत्र पश्यामः तत्र अवगमनम् अस्ति वा न वा तत्र लक्ष्मी भगिनी वदति वा तत्र समवायस्य भेदः नास्ति इति यः ग्रन्थकारः वदति तस्य आशयः कः इति किञ्चित् वदति वा अस्ति वा लक्ष्मी भगिनी अस्ति वा
क्षम्यता महोदय म्यूट् मध्ये आसन् महोदय अहं केवलं सम्यक् न अवगतवती इत्युक्ते समवाय भवान् उक्तवान् समवाय अनुयोगिक समवायप्रतियोगिक अभावः इति न वर्तते इति कृत्वा तत्र समवाय एकमेव इति ग्रन्थकारस्य आशयः इत्युक्ते पूर्वं घटमिति स्वीकुर्मः चेत् घटमिति स्वीकुर्मः चेत् तत्र अत्यन्तभावः अन्योन्यभावः द्वयोपि स्वीकृत्य तत्र वाक्यम् अभवत् तत्र वाक्यमस्ति घटवद्भूतलं तत्र भूतलम् अनुयोगी घटः प्रतियोगी अत्र यदि यदि भूतले घटं नास्ति चेत् अभावस्य अभाववाक्यं कथम् अभावः इति उच्यते इत्युक्ते घटप्रतियोगिकभूतलं भूतल अनियोगिक अभावः इति वाक्यं भवति खलु
सत्यं सत्यमेव सत्यम्
अस्तु अन्योन्य अभावस्य स्थले कथम् अन्योन्यभावस्य स्थले अन्योन्यभावः इत्युक्ते तत्र घटभेदः पटे अस्ति पटभेदः घटे अस्ति इति घट अनुयोगिक पटः पटानि पटानियोगिक घटे समवाय तद् भेदः अन्योन्यभावः एकनिमिषं
घटे तत्र पटस्य अन्योन्यभावः वर्तते नाम पटभेदः पटभेदः घटे वर्तते नाम पटस्य अन्योन्यभावः घटे वर्तते तर्हि सः अभावः कीदृशः अभावः इत्युक्ते पुनः पटप्रतियोगिक घट अनुयोगिक अभावः खलु यथा नाम नाम किम् इत्युक्ते तत्र प्रतियोगी अनुयोगीं प्रतियोगीम् अनुयोगीं स्वीकृत्य यथा अत्यन्ताभावस्थले निरूपणं कृतं तथैव अन्योन्याभावस्थलेपि निरूपणं कर्तुं शक्यम् इत्येतावन्मात्रम् अस्ति तत्र नाम अनुयोगिकप्रतियोगिक इति दलं स्वीकृत्य प्रतियोगि इति दलं स्वीकृत्य अन्योन्याभावस्थलेपि तथैव वक्तुं शक्यते घटप्रतियोगिक नाम पटप्रतियोगिक घटानुयोगिक अभावः तद् वक्तुं शक्यते इदानीं पुनः तत्र तथा वक्तुं शक्यते चेत् समवायसमवायः न इत्याकारकप्रतीतिः
समवाय अनुयोगिक समवाय प्रतियोगिकः
आम् एवं
प्रतियोगिकः
अभावस्य अप्रसिद्धिः आं तथा तथा अस्ति
तथा अस्ति अस्तु
अस्तु अस्तु इदानीम् अभावस्य विषये अभावश्चतुर्विधः रागभावः प्रध्वंसाभावो अत्यन्त अभावो अन्यन्याभावश्चेति इदानीम् अस्माभिः कोऽपि स्मरति वा अभावस्य अस्माभिः अभावस्य विषये लक्षणं किं कृतमासीत् अभावस्य विषये लक्षणम् अस्माभिः किं कृतमासीत् आसीत् कोऽपि स्मरति वा विद्याधरीग्रन्थे ग्रन्थ अध्ययनावसरे नाम तत्र लक्षणमिति कृत्वा न तत्र विवरणे तदपि आगतः आसीत् इति चिन्तयामि तत्र अस्माभिः किम् उक्तम् आसीत् स्वरूपं कीदृशं भवति अभावस्य इत्युक्ते प्रतियोगिज्ञानाधीनज्ञानविषयत्वम् अभावस्य लक्षणम् इति उक्तम् आसीत् प्रतियोगिज्ञानं नाम यावत् घटज्ञानं न भवति तावत्पर्यन्तं घटाभावस्य ज्ञानं कथं भवति घटाभावः तर्हि यावत्पर्यन्तं प्रतियोगिनः घटस्य ज्ञानं न भवति कार्यं तावत्पर्यन्तं घटाभावस्य ज्ञानं कथं भवति न भवत्येव यावत् प्रतियोगिनो ज्ञानं न भवति तावत् अभावज्ञानं न भवति न सम्भवति अतः प्रतियोगिज्ञानाधीनज्ञानम् अभावज्ञानं तर्हि तादृश अभावज्ञानस्य विषयः अभावः विषयत्वम् अभावे तद्विषयत्वस्य अभावे वर्तमानत्वात् तत् लक्षणस्य समन्वयः भवति प्रतियोगिज्ञानाधीनज्ञानविषयत्वम् इति एतावन्मात्रं तत्र तस्य लक्षणम् अस्ति एतत् अस्माभिः तत्र विद्याधरीग्रन्थपरिशीलनावसरे अपि दृष्टमिति परिशीलितम् इति मन्ये इदानीम् अत्र अभावस्य विषये बहु किमपि न उक्तं कुतः इत्युक्ते अनन्तरम् आगच्छति अनन्तरं सर्वस्यापि तत्र सर्वेषामपि अभावानां विवरणम् अनन्तरम् आगच्छति अतः अत्र केवलं विभागवाक्यमेव उक्तम् अस्तु तर्हि अतः वयमपि अत्र बहु किमपि न पश्यामः वयं जानीमः एव प्राग्भावः किं प्रध्वंसाभावः किम् अत्यन्ताभावः किम् अन्योन्याभावः अत्र प्राग्भावः प्रध्वंसाभावः अत्यन्त अभावः सांसर्गिक अभावः इति उच्यते सांसर्गिक अभावः केनापि संसर्गेन एव अभावः भवति अभावः भवति नाम प्रतियोगी केनापि तत्र संसर्गसम्बन्धावच्छिन्न उदाहरणं तत्र अत्यन्ताभावः घट अत्यन्ताभावः भूतले अस्ति. यदि घटः भूतले स्यात् तर्हि केन सम्बन्धेन स्यात् इत्युक्ते संयोगसम्बन्धेन. तर्हि संयोगसम्बन्धेन घटः भूतले नास्ति इति कृत्वा संयोगसम्बन्धावच्छिन्न घटप्रतियोगिक भूतल अनुयोगिक अभावः. तर्हि संयोगः अत्र संसर्गः. तर्हि सर्वदैव तत्र संसर्ग भवति इति कृत्वा अत्र संसर्गाभावः प्रागभावः प्रध्वंसभावः अत्यन्तभावः संसर्गाभावः इति उच्यते. तर्हि पुनः प्रश्न उदेति तत् किं तर्हि अन्यन्यभावः संसर्गाभावः नास्ति वा कुतः इति चेत् तत्र तत्रापि तत्र तादात्म्यसम्बन्धस्तु वर्तते एव खलु. तत्र किमर्थं तर्हि संसर्ग तादात्म्यमपि संसर्ग एव खलु. किमर्थं संसर्गाभावः तादात्म्य अभावः संसर्गाभावः नास्ति इति उच्यते इत्युक्ते तादात्म्यसम्बन्धः वृत्ति अनियामकसम्बन्धः. अन्ये ये प्रागभावः प्रध्वंसभावः अत्यन्तभावः ये अभावाः भवन्ति सर्वदैव वृत्तिनियामकसम्बन्धावच्छिन्ना भवन्ति. अन्योन्यभावः तत्र तादात्म्यसम्बन्धावच्छिन्न भवति. तादात्म्यसम्बन्धः वृत्तिनियामकसम्बन्धः न स्वीक्रियते इति कृत्वा संसर्गाभावः न उच्यते. संसर्गाभावः इत्यस्य न केवलं सामान्यसंसर्ग अथवा सम्बन्धावच्छिन्न अभावः परन्तु वृत्तिनियामकः संसर्ग अथवा सम्बन्धावच्छिन्न अभावः इति आशयः. अनन्तरं विवरणमपि आगच्छति. यदा प्रत्येकं पश्यामः तदा अधिकविवरणं पश्यामः. केवलं सामान्यरूपेण इदानीं संसर्गाभावः इति तत्र तत्र ग्रन्थेषु दृश्यते. किमर्थं तथा उच्यते, किमर्थम् अन्यन्याभावः संसर्गाभावः नास्ति इति उच्यते इति सामान्यपरिचयरूपेण वदामि इदानीं. तर्हि तत्र अग्रे गच्छामः. इदानीम् एतावत्पर्यन्तं किं जातम् इत्युक्ते एतावत्पर्यन्तम् उद्देशग्रन्थः समाप्तः. इदानीं द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावपर्यन्तं वयम् आगतः. तर्हि उद्देशग्रन्थः इदानीं समाप्तः. इदानीं लक्षणग्रन्थस्य आरम्भः भवति. इदानीं तत्र लक्षणग्रन्थस्य आरम्भः. तत्रापि तत्र क्रमप्राप्तं पृथिवीम् इदानीं लक्षयति. लक्षणं नाम लक्षयति, पृथिवीं लक्षयति. क्रमप्राप्तं पृथिवीं लक्षयति. क्रमप्राप्तं कथम् इत्युक्ते तत्र उद्देशक्रमान् दीपिका प्रथमं तर्हि तत्र मूलग्रन्थं कः पठति इदानीं? रत्ना भगिनी पठति वा मूलग्रन्थम्? इदानीं तत्र गन्धवती पृथिवी इत्यारभ्य तत्र तर्कसङ्ग्रहः मूलग्रन्थं पठति वा?
गन्धवती पृथ्वी इत्यारभ्य
तत्र मूलग्रन्थमेव केवलं.
हा, तत्र गन्धवती पृथ्वी सा द्विविधा, नित्या अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा, पुनस्त्रिविधा शरीरेन्द्रियविशेष विषयभेदात् शरीर शरीरम् अस्मदादीनाम् इन्द्रियं गन्धग्राहकं घ्राणं नासिकाग्रवर्ती विषयः मृत्पाषाणादिः इति.
सम्यक् एव. अत्र किञ्चित् विवरणं करोति वा?
हा, प्रयत्नं करोमि महोदय. अस्तु, वयं जानीमः गन्धवती पृथिवी इति. इत्युक्ते पृथिव्यां गन्धः इति गुणः वर्तते, पृथिव्याम् एव वर्तते इति प्रायः अग्रे आगच्छति इति चिन्तयामि. पृथिवी पृथिव्याः द्विविधाः भवन्ति पृथिवी पदार्थाः. तेषु एकविधः अस्ति नित्याः, अनन्तरं द्वितीयविधः अनित्याः च. अनन्तरं नित्या पृथिवी इत्युक्ते परमाणु रूपा, यथा घटपरमाणुः तथा सः परमाणुः नित्यः अस्ति. सः पृथिवी द्रव्यमस्ति, नित्यपरमाणुरूपा. अनन्तरम् अनित्यकार्यरूपा. कार्यरूपा इत्युक्ते यत्किमपि परमाणुना उद्भवति, यथा घटः, पटः, शिलाखण्डः तथा. अनन्तरं अनन्तरं पुनः त्रिविधः भवति पृथिवी विषये त्रिविधाः भवन्ति. तेषु प्रथमविधः अस्ति शरीरः यथा अस्मादीनां शरीरः. अनन्तरम् इन्द्रियमस्ति यथा गन्धग्राहकं घ्राणम् अस्ति, घ्राणेन्द्रियं नासाग्रवर्ति अस्ति. अनन्तरं तृतीय विधः अस्ति शरीरम् इन्द्रियम् अपि च विषयभेदात्, इत्युक्ते विषयभेदः इत्युक्ते यथा मृत् अस्ति, पाषाणः अस्ति, तन्तवः सन्ति, तथा बहवः विषयाः सन्ति, ते तृतीयविधे आगच्छन्ति.
सत्यमेव, सत्यम् अस्तु, सत्यं. तत्र गन्धवती पृथिवी अत्र अस्ति लक्षणवाक्यं, लक्षणवाक्यम् अस्ति गन्धवती पृथिवी. तर्हि अत्र गन्धवत्वं पृथिवी आलक्षणम् इत्येवम् उक्तम्. अत्र समानाधिकरणप्रयोगः, समानाधिकरणप्रयोगः भवति चेदपि तत्र गन्धवत्वमेव पृथिवी आलक्षणम् इति वयं जानीमः एव. सा द्विविधा नित्या अनित्या च, तत्र वैविध्यं सूचितम् अत्र विभागः एकः एकरीत्या विभागः कृतः अत्र द्विविधा नित्या नित्या च. नित्या परमाणुरूपा, नित्या कार्यरूपा, नाम परमाणुभिन्ना पृथिवी कार्यजातं सर्वमपि अनित्य अनित्यपृथिवी एव. पुनः तत्र किं वदति इत्युक्ते पुनः त्रिविधा नाम तत्र नित्य अनित्य इति विभागः एकविभागः, इदानीं भिन्नविभागः पृथिव्याः भिन्नरूपेण विभागं करोति. पुनस्त्रिविधा शरीरेन्द्रियविषयभेदा, नाम शरीरं नाम पार्थिवशरीरम्, इन्द्रियं पार्थिव इन्द्रियं, विषयः पार्थिवविषयः इति आशयः. शरीरम् अस्मदादीनां शरीरम्, अस्मदादीनां शरीरं, परन्तु तत्र अनन्तरं वदति शरीरस्य किं लक्षणं, स्वरूपं कीदृशम् अस्ति इत्युक्ते दीपिकाग्रन्थे वदति अनन्तरं, तत्र पश्यामः. इन्द्रियम् अपि किम्, इन्द्रियस्यापि लक्षणम् अत्र कृतं, तदपि अद्य अस्मिन् वर्गे वयं तत्र पश्यामः. मुख्यविषयः तत्र पश्यामः, तावत्पर्यन्तं गन्तुं शक्यते वा न वा पश्यामः. इन्द्रियं ग्रन्थ इन्द्रियस्य किं प्रयोजनम् इति, गन्धग्राहकम् इति लक्षणं नास्ति इति अनन्तरं वदति दीपिकाग्रन्थे एव, लक्षणं नास्ति केवलं प्रयोजनकथनं. पार्थिव इन्द्रियस्य किं प्रयोजनम् इत्युक्ते गन्धग्राहकत्वं प्रयोजनम्. तस्य नाम किं, ग्राणम् इत्यपि लक्षणं नास्ति, केवलं तत्र व्यपदेशनाम एव ग्राणं. तर्हि नाम कथनं, नासाग्रवर्ति स्थानकथनं, कुत्र वर्तते इत्युक्ते नासिकायाः अग्रभागे वर्तते, सर्वत्र नासिकायां न वर्तते, नासिकायाः अग्रभागे एव वर्तते इति वदति नासाग्रवर्ति. अन्य अस्ति विषयः मृत्पाषाणादि, तत्र न्यायबोधिन्यां दत्तमस्ति विषयः नाम किम् इत्युक्ते, किं वदति इत्युक्ते अत्र उपभोगसाधनं विषयः इति केचन वदन्ति, उपभोगसाधनं विषयः इति केचन वदन्ति. अन्ये किं वदन्ति इत्युक्ते उपभोगसाधनं विषयः वदामः चेत् तत्र शरीरादिषु अपि तत्र साङ्कर्यमपि भवति, अतिव्याप्तिः भवति, अतः तत्र शरीरेन्द्रियभिन्नत्वे सति उपभोगसाधनत्वं साधनं विषयः इति वक्तव्यम् इति अन्ये वदन्ति. केचन किं वदन्ति इत्युक्ते तादृशी परिस्थितिः नास्ति, विषयः कः इत्युक्ते केवलम् अत्र बुद्धिवैषद्यार्थम् एवं तत्र विभागः कृतः, बालानां बुद्धिवैषद्यार्थम् एवमेवं भवति इति सामान्यकथनार्थम् एवं कृतं, वस्तुतस्तु शरीरमपि विषयः भवति इति अन्ये वदन्ति. परन्तु अन्ये पुनः किं वदन्ति इत्युक्ते शरीरेन्द्रियभिन्नत्वे सति उपभोगसाधनत्वं निवेशनीयं, तथा करणेन किं भवति इत्युक्ते शरीरादिषु विषयत्वं न गच्छति इति वदन्ति. अस्तु, विषयो मृत्पाषाणादि, अस्तु, तत्र अग्रे सरामः. इदानीं किं कुर्मः इत्युक्ते अत्र सुभवनं महोदय किञ्चित् पठति वा तत्र वाक्यद्वयं वा त्रयं वा तत्र दीपिकाग्रन्थे द्वाविंशतितमीपूते
पठामि महोदय. तत्रोद्देश तत्र उद्देशक्रम अनुसारिणे अनुसारेण प्रथमं पृथिव्याः लक्षणमाह गन्धवती इति नाम्ना पदार्थसङ्कीर्तनम् उद्देशः. उद्देशक्रमे च सर्वत्र
इच्छैव नियामिका.
सर्वत्र इच्छैव नियामिका इति तावद्वा अग्रे
तावत्पर्यन्तम् आम् आम् किञ्चित् विवरणं करोति वा?
हा प्रयत्नं करोमि महोदय. तत्र उद्देशक्रमम् क्रम अनुसारेण प्रथमं पृथिव्याः लक्षणमाह. इदानीं तत्र आरम्भे यद् उद्देशग्रन्थे उक्तं तत्र प्रथमं पृथिवी इति आरभ्य उक्तम् इति कृत्वा तत्र पृथिव्याः लक्षणं प्रथमं वदति गन्धवती पृथिवी इति तस्य लक्षणं वदति. नाम्ना पदार्थसङ्कीर्तनम् उद्देशः इति तत्र उद्देशस्य लक्षणं प्रायः अत्र उक्तमस्ति. पदार्थसङ्कीर्तनमेव उद्देशः इति के पदार्थाः सन्ति तत्र केवलं तत्र परिगणितरूपेण उक्त्वा तस्य लक्षणम् अनन्तरं वदति. इदानीं तत्र पदार्थसङ्कीर्तनमेव उद्देशः इति
सत्यं सत्यम्.
उद्देशक्रमे च सर्वत्र इच्छैव नियामिका न बुद्ध महोदय.
अस्तु अत्र किं वदति इत्युक्ते अत्र कश्चन सिद्धान्तं प्रतिपादयति. इदानीम् अवसरं प्राप्तम् इति अवसरः प्राप्तः इति कृत्वा इदानीं कश्चन सिद्धान्तस्य निरूपणं करोति. नाम किं वदति इत्युक्ते भोः कोऽपि प्रश्नः कुर्यात् प्रश्नः भवेत् भोः किमर्थं पृथिवीं तत्र प्रथमं स्वीकृतं पृथिवी इति किमर्थं प्रथमम् उपन्यस्तम् इति कोऽपि पृथिव्याप्तेजो इति तर्हि तेजो तेजसः प्रथम उपन्यासः किमर्थं न कृतः? उद्देशक्रमस्य नियामकः कः? एवमेव उद्देश्य क्रमं भवेत् इति नियमनस्य कर्ता कः? नियामिका कः? तत्र नियामकः कः इत्युक्ते किं वदति इत्युक्ते तत्र नियामकः न कोऽपि न अस्ति. उद्देशक्रमस्य नियमने इच्छा एव नियामिक. नाम भवता यादृशी च मुनेः तत्र अथवा ग्रन्थकर्तुः इच्छा यादृशी आसीत् इच्छा एव तादृशी इच्छा आगता इति कृत्वा तादृशं क्रमं स्वीकृत्य तत्र ग्रन्थस्य प्रतिपादनं कृतं. सर्वत्र उद्देशक्रमे इच्छैव नियामिका. अन्यत् न किमपि नास्ति. अन्यधर्मः वा तत्र विद्यमानः पदार्थः वा तेषु विद्यमानः कश्चन नियमः वा न कोऽपि तत्र उद्देशक्रमस्य नियामकः. इच्छैव सर्वत्र नियामिका इति वदति. उद्देशक्रमे तथा
वदति इत्युक्ते तत्र तेजः अपि भवितुम् अर्हति
परन्तु
पृथिवी स्वीकृत
महोदय. एकरीत्या पश्यामश्चेत् पृथिवी इत्यस्मिन् द्रव्ये ये गुणाः अपरेषु नास्ति तत्सर्वम् अस्ति खलु. पृथिव्यां गन्धः अस्ति, शैत्यम् अस्ति, औष्ण्यम् अस्ति, स्पर्शः अस्ति, शब्दः न स्पर्शः
न न तत्र कथनस्य आशयः किम् इत्युक्ते तत्र बहवः तत्र गुणाः अन्येपि तत्र द्रव्यमपि द्रव्य पृथिव्यां भवति इत्यादिकं तत्र चिन्तनं स्वीकृत्य प्रथमम् उपन्यासः कृतः इति चिन्तनं स्यात्. परन्तु तथा भवति चेदपि नियमः तादृशः नास्ति इति ग्रन्थकारस्य आशयः. नाम एवं तत्र प्रथम उपन्यासस्य कोऽपि कारणं विशेषः भवेत् इति नियमः नास्ति इति ग्रन्थकारः वदति. अस्ति चेत् सम्यक् एव, परन्तु तादृशः नियमः नास्ति इत्येव आशयः. अस्तु तदनन्तरम् इदानीं तत्र किञ्चिदिव अहं पठामि, तदनन्तरं पुनः पश्यामः. ननु सुरभ्यसुरभ्यवयव आरब्धे द्रव्ये परस्परविरोधेन गन्धानुपादात् अव्याप्तिः न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् अवयवगन्धस्यैव तत्र भानसम्भवेन चित्रगन्ध अनङ्गीकारः इति एतावत्पर्यन्तं पश्यामः. इदानीं किं वदति इत्युक्ते, किमुक्तं लक्षणं, किमुक्तं गन्धवती पृथिवी लक्षणम् उक्तं, गन्धवत्वं पृथिव्याः लक्षणम् इति उक्तम्. इदानीं किं वदति पूर्वपक्षी, किं करोति इत्युक्ते, भोः गन्धवत्वं पृथिव्याः लक्षणं न युक्तं, तत्र दोषः वर्तते. इदानीं पश्यतु, उदाहरणं वदामि. ननु, पुनः अत्र आक्षेपग्रन्थः, ननु सुरभ्य असुरभ्य वयवारभ्ये द्रव्ये, आरभ्ये द्रव्ये नाम कार्यद्रव्ये इति अर्थः, आरभ्ये द्रव्ये कार्यद्रव्ये नाम यस्य कार्यद्रव्यस्य. इदानीं पश्यामः घट, तत्र कपालद्वयं, यदि सुरभियुक्तौ द्वौ कपालौ वर्तेते चेत् तर्हि एकस्मिन् सुरभि, एकस्मिन् कपाले सुरभिः सुगन्धः, अन्यस्मिन् कपाले असुरभि दुर्गन्धः. एवं चिन्तयामः, तर्हि द्वौ कपालौ तत्र स्तः, सुरभि असुरभि द्रव्य अवयव, अवयव नाम कपाल द्वय, आरभ्ये आरभ्ये द्रव्ये नाम तत्र घटे. इदानीं तत्र सुरभि असुरभि गन्धस्य द्वयोः परस्परविरोधः वर्तते, सुरभि असुरभि द्वयोः परस्परविरोधः. तर्हि परस्परविरोधः अस्ति इति कृत्वा आरभ्ये द्रव्ये, कपाले तु तत्र एकस्मिन् कपाले सुरभिः वर्तते, अपरस्मिन् कपाले असुरभिः वर्तते, परन्तु तत्र यः घटः उत्पन्नः तस्मिन् घटे न कोऽपि गन्धः भवति इति पूर्वपक्षी वदति. कुतः इति चेत् तत्र परस्परविरोधेन किं भवति इत्युक्ते, तत्र सुरभि गन्धस्यापि उत्पादः असम्भवः. कुतः इत्युक्ते असुरभि गन्धेन तत्र विरुध्यते इति कृत्वा, प्रतिबध्यते इति कृत्वा, असुरभिगन्धस्यापि तत्र तत्र जननं न भवति, असुरभि गन्धोऽपि तत्र न उत्पद्यते. कुतः इति चेत् तत्र सुरभि गन्धात् असुरभिगन्धः प्रतिबध्यते, अतः घटे गन्ध एव न भवति, गन्ध अनुत्पादात् तत्तर्हि अव्याप्तिः जाता. नाम तादृशे घटे किमस्ति, गन्धः नास्ति एव. गन्धः नास्ति चेत् गन्धवत्वं पृथिव्याः लक्षणम् उक्तं, तर्हि गन्धवत्वं नाम गन्ध एव, तद्वत्वं तदेव, तर्हि गन्ध एव नास्ति चेत् घटे. इदानीम् एतत् लक्षणं यदुक्तं, गन्धवत्वं पृथिव्याः लक्षणं, तत् लक्षणम् अव्याप्तिदोषग्रस्तं. कुतः इति चेत् इदानीं तत्र लक्ष्यैकदेश अवृत्तित्वं भवति. लक्ष्यैकदेशे सुरभि असुरभि अवयव आरभ्ये घटे, लक्ष्यैकदेशे घटे लक्षणस्य असत्वात् अव्याप्तिदोषग्रस्तम् इदं लक्षणम् इति पूर्वपक्षी वदति. पुनः पूर्वपक्षी किं वदति इत्युक्ते, न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् अवयवगन्धस्यैव तत्र भानसम्भवेन चित्रगन्ध अनङ्गीकारः. पुनः किम् अत्र न च इति, न च वाच्यम् इति अस्ति, न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यं, तत्र पठनं कथं, तत्र पठनसौकर्यं कथं भवति इत्युक्ते किञ्चिदिव व्यत्यासः, परिवर्तनं कृत्वा पठामः. तत्र कथं पठनीयम् इत्युक्ते, तत्र एवं पठनीयं, न च इति न पठनीयं पूर्वं, किम् कथं पठनीयम् इत्युक्ते, तत्र गन्धप्रतीति अनुपपत्तिरिति न वाच्यम् एवं पठनीयम्. गन्धप्रतीति अनुपपत्ति इति यदा अभ्यासः भवति तदा सर्वं सुलभमेव भवति, परन्तु यदि तत्र क्लेशः अनुभूयते चेत् परिवर्तनं कृत्वा पठनीयं. गन्धप्रतीति अनुपपत्तिरिति न च वाच्यम् एवं पठनं करोति. नाम तत्र इदानीम् एतावत्पर्यन्तं पूर्वपक्षी एव वदति, सुरभि असुरभि अवयव आरब्धे द्रव्ये परस्परविरोधेन गन्धस्य अनुत्पादः, गन्धस्य अनुत्पादः इति कृत्वा घटे गन्धः नास्ति, घटे गन्धः नास्ति इति कृत्वा गन्धवत्वं पृथिव्याः यः लक्षणम् उक्तं, तेन लक्षणेन घटः न अन्तर्भावितः तस्मिन्, तत्र लक्ष्ये तस्मिन् घटे लक्ष्ये अवृत्तित्वमेव तत्र अव्याप्तिदोषग्रस्तम् इति. तर्हि इदानीं पूर्वपक्षिणः विशेषः सिद्धान्तः किमासीत् इत्युक्ते, घटे गन्धः न वर्तते इति तस्य चिन्तनमासीत्। परन्तु इदानीं तत्र पूर्वपक्षी एवं वदति, इदानीं पूर्वपक्षी अत्र आक्षेपः कृतः, सिद्धान्तिना आक्षेपः कृतः। आक्षेपः कः कृतः इत्युक्ते, भोः परन्तु घटे गन्धस्य उपपत्ति, गन्धस्य अनुभवः तु अस्ति एव खलु, गन्धप्रतीतिः अस्ति घटे। भवान् वदति गन्धस्य अनुत्पादः, भवान् पूर्वपक्षी वदति गन्धस्य अनुत्पादः एवं वदति चेत्, परन्तु गन्धप्रतीतिः अस्ति, स्वयं साक्षात् तत्र प्रत्यक्षम् अनुभूयते, तर्हि गन्धस्य उत्पत्तिः न भवति चेत् गन्धप्रतीतिः अनुपपन्ना भवति, नाम युक्तियुक्ता न भवति, कथम् आगतं तर्हि घटे गन्धः इति। पूर्वपक्षी किं वदति, तत् पूर्वमेव चिन्तयित्वा ग्रन्थकारः, सिद्धान्ती, नैयायिकः एवम् आक्षेपं करोति इति पूर्वमेव चिन्तनं कृत्वा तस्य समाधानं स्वयमेव वदति। तथा न वक्तव्यं भोः, गन्धप्रतीति अनुपपत्ति एवं न वाक्यं न वक्तव्यं। किमर्थम् इत्युक्ते घटस्य गन्धः नास्ति, तत् अवयवगन्धस्यैव तत्र भानं। चित्रगन्धस्य अङ्गीकारः नास्ति, नैयायिकमते, सिद्धान्तिनां मते, पुरपक्षिणां मते अपि चित्तगन्धस्य नाम मिश्रितग्रन्थगन्धस्य, सुरभि असुरभि मिश्रितचित्रगन्धस्य तत्र अङ्गीकारः नास्ति सिद्धान्ते, प्रतिपक्षी अपि न अङ्गीकरोति चित्रगन्धस्य अनङ्गीकारः। तर्हि चित्रगन्धस्य अङ्गीकारः नास्ति चेत् कथं घटे गन्धस्य भानम् इत्युक्ते, पूर्वपक्षी वदति अवयवगन्धस्यैव तत्र भानः सम्भवेन। तर्हि अवयवगन्धः केन सम्बन्धेन घटे भवति, अवयवगन्धः केन सम्बन्धेन घटे भवति, कोऽपि वक्तुम् इच्छति वा? अवयवगन्धः नाम कपालगन्धः केन सम्बन्धेन घटे भवति?
परम्परासम्बन्धेन।
सत्यमेव, परम्परासम्बन्ध सामान्यरूपे, परन्तु तत्र अत्र किञ्चित् इतोपि विशेषः कः, परम्परा सत्यं सत्यमेव, परन्तु परम्परा बहवः सम्बन्धाः परम्परासम्बन्धाः भवन्ति। अत्र कीदृशः तत्र कीदृशः परम्परासम्बन्धः इति प्रश्नः अस्माभिः
दृष्टं,
सत्यमेव सत्यमेव, स्वस्वाश्रयसमवेतत्वसम्बन्धेन। स्वं नाम अत्र अवयवगन्धः, स्वस्य आश्रयः कपालः, तत्र समवेतः घटः, कपाले समवेतः घटः, समवेतत्वं घटे इति कृत्वा, स्वाश्रयसमवेतत्वं घटे इति कृत्वा, स्वाश्रयसमवेतत्वसम्बन्धेन घटे गन्धः अस्ति, तस्यैव प्रतीतिः, तर्हि गन्धप्रतीति अनुपपन्ना इति न वाच्यम् इति पूर्वपक्षी वदति, अनुपपन्ना इति न वाच्यम्। अपि च चित्रगन्धः न स्वीक्रियते। अत्र किञ्चित् वक्तव्यं भवति, चित्ररूपं स्वीकृतं, चित्ररूपं स्वीकृतं, चित्ररूपम् अस्ति इति नैयायिकाः स्वीकुर्वन्ति, परन्तु चित्रगन्धस्य स्वीकारः नास्ति, चित्रगन्धं न स्वीकुर्वन्ति। तर्हि चित्ररूपं किमर्थं स्वीकुर्वन्ति इति प्रश्नः उदेति, किमर्थं चित्ररूपं स्वीकुर्वन्ति परन्तु चित्रगन्धं, मिश्रितग्रन्थं गन्धं किमर्थं स्वीकुर्वन्ति इत्युक्ते, अत्र स्वीकरणस्य न कापि आवश्यकता अस्ति, लाघवार्थं न स्वीकुर्वन्ति इत्येव अर्थः। चित्ररूपं किमर्थं स्वीकुर्वन्ति इत्युक्ते, चित्र अवयवि, चित्रित अवयवि द्रव्यस्य प्रत्यक्षं न भवति यदि रूपं न भवति चेत्। तत्र द्रव्यप्रत्यक्षे रूपप्रत्यक्षम् आवश्यकम्, उद्भूतरूपवत्त्वम् आवश्यकम् इति स्मर्यते वा न वा? तत्र विद्याधरीग्रन्थे अस्माभिः दृष्टमासीत्, तत्र किं किम् आसीत् तत्र अहमपि पूर्णरूपेण न स्मरामि। तत्र तत्र महत्परिमाणवत्त्वम्, उद्भूतरूपवत्त्वम्, अन्यदपि किमपि आसीत् न स्मरति इदानीं। तर्हि उद्भूतरूपवत्त्वम् आवश्यकं, तर्हि चित्ररूपं न स्वीक्रियते, चित्रघटस्य प्रत्यक्षमेव न भवति, घटद्रव्यप्रत्यक्षमेव न भवति इति कृत्वा चित्ररूपस्य स्वीकारः। परन्तु अत्र गन्धेन तत्र द्रव्यप्रत्यक्षं भवति वा न वा चित्रगन्धेन इति अत्र न कापि तत्र न कोऽपि निर्बन्धः नास्ति, अत्र समस्या नास्ति इति कृत्वा चित्रगन्धं न स्वीकुर्वन्ति, चित्रगन्धं न स्वीकुर्वन्ति। अतः तत्र अवयवि, सुरभि, असुरभि आरब्धे द्रव्ये गन्धस्य अनुत्पादः एव स्वीकुर्वन्ति, अवयवगन्धस्यैव तत्र भानं स्वीकुर्वन्ति। अस्तु, एतत् एतावत्पर्यन्तम् अवगमनं जातवान् रक्षा भगिनी किञ्चित् वदति वा?
महोदय क्षम्यतां, तत्र गन्धप्रतीत्यनुपपत्तिः इति किञ्चित् मम स्पष्टं नास्ति.
आम्, अनुपपत्ति नाम तत्र अनुपपत्ति नाम अत्र किं वदामः, डस् नाट् फालो इति एव अर्थः, युक्तियुक्तं नास्ति. गन्धप्रतीति मम अस्ति, परन्तु भवान् वदति गन्धस्य उत्पत्तिरेव न भवति इति भवान् वदति, परन्तु मम गन्धप्रत्यक्षं मम साक्षात् मया अनुभूयते. तर्हि अत्र तर्हि तत्र गन्धप्रतीति किमर्थं भवेत्? अत्र युक्ति का, उपपत्ति का? अत्र किमर्थं गन्धप्रतीति प्रतीतिः भवेत्, तस्य प्रत्यक्षं भवेत्? तत्र लाजिक् का अस्ति, उपपत्ति का अस्ति इति. न च तत्र गन्धप्रतीति अनुपपत्तिरिति वाच्यं, नाम यदि गन्धघटे नास्ति वदति चेत् गन्धप्रतीति भवेत् इति लाजिक् अपि नास्ति, उपपत्तिरपि नास्ति, अनुपपत्ति भवति तत्र इति वदति.
इत्युक्ते पूर्वस्मिन् वाक्ये तत्र परस्परविरोधः इति उक्तं तत्र पूर्वपक्षिणा, तद् श्रुत्वा सिद्धान्ती यदि वदेत् गन्धप्रतीतिः नास्ति तद्वा इति?
न न न न न, तत्तत् श्रुत्वा सिद्धान्ती किं वदेत् इत्युक्ते, भोः भवता उक्तं, पूर्वपक्षिणा भवता उक्तं गन्ध उत्पत्तिः न भवति उक्तं, परन्तु यदि गन्धस्य उत्पत्तिः न भवति चेत् गन्धप्रतीतिः कथं? गन्धप्रतीतिः तु साक्षात् मया अनुभूयते. तर्हि गन्धप्रतीत्याः अनुपपत्ति भवति, नाम गन्धप्रतीतिः अस्ति परन्तु युक्तियुक्तं न भवति. किं तत्र गन्ध उत्पत्ति नास्ति तथापि गन्धप्रतीतिः भवति वा? तत्तु युक्तियुक्तं न भवति खलु. यदि घटे गन्धः नास्ति परन्तु मम गन्धप्रतीतिः अस्ति चेत् तत्र युक्ति उक्ति का? तत्र प्रतीतिः अनुपपन्ना भवेत्, युक्तियुक्तं न भवेत्, लाजिकल् न भवेत् इति अर्थः. अनुपपत्तिरिति लाजिकल् न भवति इति वदति. यदि गन्धस्य उत्पत्तिः नास्ति इति भवान् वदति परन्तु मम साक्षात् अनुभवः अस्ति, तर्हि तस्य अनुभवस्य अनुभवः लाजिकल् नास्ति, अनुपपत्ति अस्ति तर्हि. एवं वदति. स्पष्टमस्ति वा भगिनी?
आं महोदय.
अस्तु अस्तु, तर्हि रक्षा भगिनी किञ्चित् विवरणं करोति वा?
आं महोदय, तस्मात् पूर्वम् एकः प्रश्नः, चित्रगन्धः नास्ति इति समीचीनं, तद् अवगतं, परन्तु अवयवगतगन्धः एव अवयविनि गन्धं निर्माति खलु?
तत्र तदेव अत्र अत्र समस्या. निर्माति तत् सत्यमेव, तत् सत्यमेव, परन्तु अत्र विशेषपरिस्थितिं स्वीकृत्य वदत्, तत् सामान्यं. परन्तु यदा सुरभि असुरभि द्वौ गन्धौ तत्र कपालयोः अवयवयोः भवति चेत् तत्र बाधितो भवति इति अर्थः. सामान्यरूपेण भवत्या यदुक्तम् अवयवगन्धः तत्र अवयवी गन्धं प्रति असमवायिकारणं भवति, तत् सत्यमेव. परन्तु यत्र परस्परविरोधी द्वौ गन्धौ वर्तेते तत्र उत्पत्तिः न भवति इति वदति.
हा, समीचीनं महोदय. तर्हि कपालद्वयम् अस्ति, कपालद्वयस्य गन्धः अवयवगन्धः, गन्धद्वयमपि गन्धद्वयमपि घटे अस्ति इति स्वीकरणीयं भवति.
सत्यं सत्यं,
किन्तु तद् चित्रगन्धः नास्ति.
नास्ति नास्ति, चित्रगन्धः नाम भिन्नः ग्रन्थः. तत् पूर्वपक्षी किं वदति इत्युक्ते, घटे सुरभिगन्धः वर्तते, असुरभिगन्धः वर्तते, मिश्रितचित्रगन्धः भिन्नपदार्थः न वर्तते इति वदति, भिन्नगुणः न वर्तते इति वदति.
अस्तु अस्तु महोदय, अस्तु. तर्हि गन्धवती पृथ्वी इति पृथिव्याः लक्षणम्, एतत् श्रुत्वा पूर्वपक्षी वदति, अधुना सुरभिगन्धः अपि च असुरभिगन्धः इति आरब्धे द्रव्ये, इत्युक्ते कार्ये द्रव्ये, नाम कपालं, कपालः इति स्वीकुर्मः, आरब्धे द्रव्ये इत्युक्ते घटे, घटः कपालात् जायते इति कृत्वा एकस्मिन् कपाले सुरभिगन्धः, अपरस्मिन् कपाले असुरभिगन्धः, उभयोः परस्परविरोधः इति कृत्वा परस्परविरोधेन उभयोः मध्ये गन्धः नष्टः इति कृत्वा गन्धस्य उत्पादनमेव नास्ति, गन्धानुत्पादवादाद् अव्याप्तिः इत्युक्ते गन्धः एव नष्टः भवति, उत्पन्ने द्रव्ये आरभ्ये द्रव्ये घटे गन्धः एव नास्ति इति कृत्वा तत्र अव्याप्तिदोषग्रस्तः ग्रस्तं लक्षणं भवति गन्धवती पृथिवी इति कथनेन इति पूर्वपक्षी वदति. पूर्वपक्षी एवं वदति इति विचिन्त्य सिद्धान्ती एवं वदति यत् तत्र गन्धप्रतीत्यनुपपत्तिरिति न च वाच्यम् इति, यतोहि गन्धः अस्ति इति प्रतीतिः अस्ति, आनुभविकज्ञानमस्ति तद्, तर्हि गन्धः एव नास्ति, गन्धः नष्टः, अनेन अव्याप्तिः इति न वक्तव्यम्. यतोहि कार्ये द्रव्ये घटे वा पटे वा यत्किमपि जायते तत्र अवयवगन्धस्य उपस्थितिः अस्ति एव, परन्तु चित्रगन्धः न अङ्गीकृतः इति
वदति. सत्यं सत्यमेव. अत्र किञ्चित् वदामि, अत्र अत्र नष्ट इति न वक्तव्यं, गन्धः नष्ट इति न वक्तव्यं, तत्र चित्रगन्धस्य उत्पत्तिः नास्ति इति वक्तव्यम्, उत्पत्तिरेव नास्ति. अन्यच्च किं वक्तव्यम् इत्युक्ते अत्र अस्मिन् वाक्ये स्पष्टार्थं न च तत्र गन्धप्रतीति अनुपपत्तिरिति वाक्यम् अस्मिन् वाक्ये सम्पूर्णं वाक्यं तत्र पूर्वपक्षिणः सम्पूर्णवाक्यम् अस्ति, पूर्णं वाक्यं पूर्वपक्षिणः एव वाक्यं, परन्तु तद् वाक्यघटितवाक्यभागः सिद्धान्तिनः कोऽपि वक्तुम् इच्छति वा तत्र कियत् तत्र कियान् भागः सिद्धान्तिनः भागः अस्ति तस्मिन् वाक्ये, कोऽपि वक्तुम् इच्छति वा? न च तत्र गन्धप्रतीति अनुपपत्तिरिति वाक्यमिति सम्पूर्णं वाक्यं पूर्वपक्षिणः एव वाक्यं, परन्तु तस्मिन् वाक्ये सिद्धान्तिनः चिन्तनं, तत्र कश्चन भागः सिद्धान्तिनः वर्तते, सिद्धान्तिनः भागः कः, कोऽपि वक्तुम् इच्छति वा?
न च अपि च वाच्यम् इत्यनयोः मध्ये वा?
न च तत्र गन्धप्रतीति अनुपपत्तिरिति वाच्यं, तत्र
गन्धप्रतीतिः अस्ति इति सिद्धान्तिः.
सत्यं अस्ति इति नास्ति वाक्ये खलु,
अनुपपत्तिः तावत् पर्यन्तं गन्धप्रतीति अनुपपत्ति
सत्यमेव, गन्धप्रतीति अनुपपत्ति इति सिद्धान्तिनः चिन्तनं, तर्हि गन्धप्रतीति अनुपपत्ति इति न वाच्यम् इति पूर्णं वाक्यम् अस्ति पूर्ववक्ता, कुतः इति चेत् सिद्धान्ति वदति भोः भवान् तथा वदति चेत् गन्धप्रतीति अनुपपत्तिः खलु इति सिद्धान्ति वदति, तत्पूर्वमेव चिन्तयित्वा पूर्वपक्षी किं वदति इत्युक्ते गन्धप्रतीति अनुपपत्ति इति न वाच्यं भोः इति वदति. एतत् स्पष्टमस्ति वा? एतत् सम्यक् अवगन्तव्यम्.
अस्तु महोदय, मया प्रायः दोषः कृतः, तर्हि न च वाच्यम् इति वाक्यं तु पूर्वपक्षिणः न तु सिद्धान्तिनः.
सत्यं सत्यमेव,
परन्तु तस्मिन् वाक्ये सिद्धान्तिनः मतम् इङ्गित अन्तर्गतमस्ति.
अन्तर्गतमस्ति, सत्यमेव. तद् मतं न वाच्यम् इति वदति पूर्वपक्षिणः. गन्धप्रतीति अनुपपत्ति इति यत् सिद्धान्तिनः मतम् अस्ति अथवा चिन्तनम् अस्ति, तत् चिन्तनं न करणीयं तथा न वाच्यम् इति पूर्वपक्षी वदति, न च तत्र गन्धप्रतीति अनुपपत्ति नाम यदि गन्ध नास्ति एव घटे इति चिन्तनं क्रियते चेत् भोः गन्धप्रतीतिः कथम् अनुपपन्नं खलु, अनुपपन्ना खलु गन्धप्रतीतिः इति सिद्धान्तिनः चिन्तनं. पूर्वपक्षी किं वदति इत्युक्ते गन्धप्रतीति अनुपपन्नम् इति न वाच्यम्, अनुपपन्ना गन्धप्रतीति इति न वाच्यम् इति पूर्वपक्षी वदति. तत्र प्रतिध्वनिः श्रूयते,
इदानीमपि श्रूयते वा महोदय?
न, इदानीं नास्ति.
अस्तु, मम दूरवाणी. महोदय, एकः प्रश्नः अस्ति, अवयविनोः अवयवस्य गन्धः एव अवयविनः गन्धः भवति, तदनुसारेण चित्रगन्धः कदापि न भवति खलु?
तथैव तथैव.
कुत्रापि न भवति,
कुत्रापि न भवति, चित्रगन्धस्य सर्वथैव अङ्गीकारः न क्रियते।
अस्तु अस्तु, धन्यवादः।
तर्हि एतदेव तत्र शैली नैयायिकानाम् एवमेव भवति, तत्र न च वाच्यं न च वाच्यं न च वाच्यं घटितं वाक्य घटितानि वाक्यानि तत्र बहूनि भवन्ति।
क्षम्यता महोदय, इतोपि किञ्चित् स्पष्टता मया आवश्यकता अस्ति, अहं पृच्छामि। इदानीं सुरभि असुरभि अवयव आरब्धे द्रव्ये परस्परविरोधेन गन्धत्व अनुत्पादः इति सिद्धान्तिः अपि अङ्गीकरोति वा, गन्धस्य अनुत्पादः अस्ति इति?
इदानीं तत्र सिद्धान्ति अङ्गीकरोति एव, सिद्धान्ति किं वदति इत्युक्ते इदानीं तत्र अवयवगन्धस्य तत्र वानम् अस्ति इति सिद्धान्ति स्वीकरोति, गन्धस्य उत्पत्तिः न भवति इति स्वीकरोति, सिद्धान्ति अपि स्वीकरोति। गन्धस्य नाम तत्र कदा स्वीकरोति इत्युक्ते प्रथमं सिद्धान्ति प्रश्नं करोति, भोः तथा वदति चेत् तर्हि गन्धस्य अनुभूतिः कथम् इति सिद्धान्ति पृच्छति। तर्हि तदनन्तरं पूर्वपक्षी किं वदति इत्युक्ते गन्धप्रतीतिः कथम् इत्युक्ते अवयवगन्धस्यैव प्रतीतिः इति यदा पूर्वपक्षी वदति तदा सिद्धान्ति इदानीं विरोधं न करोति, तत्र सिद्धान्तिनः विरोधः अत्र नास्ति। तर्हि सिद्धान्तिनः विरोधः नास्ति चेत् तस्यापि स्वीकारः एव।
क्षम्यता महोदय, किञ्चित् सोपानेन गच्छामः। प्रथमं तु गन्ध गन्धः यदा एकः कपालः सुरभिः अस्ति अन्यकपालः असुरभिः अस्ति, अनयोः मध्ये संयोगः भवति तदा घटः जायते, तस्मिन् घटे गन्धस्य उत्पादनं नास्ति इति सिद्धान्ति अपि पूर्वपक्षी द्वयमपि अङ्गीकुर्वन्ति।
प्रथमं सिद्धान्तिना एतावत्पर्यन्तं न अङ्गीकृतम्, एतावत्पर्यन्तं सिद्धान्तिना न अङ्गीकृतं। प्रथमं यद् वाक्यमुक्तं तत् पूर्वपक्षिणः वाक्यम्। इदानीं सिद्धान्तिनः मनसि शङ्का, भवान् वदति गन्धस्य अनुत्पादः, परन्तु मया गन्धः अनुभूयते भोः, तत् कथं? तस्य तत्र समाधानं वदतु प्रथमं, तदनन्तरमेव स्वीकरोमि तत्र उत्पादः न भवति इति। तदर्थमेव गन्धप्रतीति अनुपपत्ति भोः इति सिद्धान्ति पृच्छति खलु।
इदानीम् अवगतम्।
तदनन्तरं वदति पूर्वपक्षी वदति अवयवगन्धः भोः तत्प्रतीतिः तु, यदा तत्र पूर्वपक्षी अवयवगन्धस्य भानं वदति तदा सिद्धान्ति आक्षेपं न करोति, इदानीं स्वीकरोति भवतु नाम तदेव सत्यं भवेत्। एवं
चित्रगन्धस्य अङ्गीकारं सिद्धान्ति अपि न करोति, पूर्वपक्षी अपि न करोति, किन्तु
सत्यं
गन्धस्य अनुत्पादनं केवलं पूर्वपक्षिणः मतमेव।
पूर्वपक्षि नाम तत्र यदि ग्रन्थक्रमेण गच्छामः चेत् यावत्पर्यन्तं समाधानं न प्राप्यते तावत्पर्यन्तं स्पष्टतः सिद्धान्तिना तत् न स्वीकृतम्।
अस्तु,
यदा समाधानं प्राप्तं नाम भोः गन्धप्रतीति अवयवगन्धप्रयुक्ता इति समाधानं यदा प्राप्तं तदा सिद्धान्तिनापि स्वीकृतम् अस्तु भवतु नाम तत्र गन्धस्य उत्पादः न भवति। वस्तुतस्तु भवता यदुक्तं द्वयोः अपि स्वीकारः, परन्तु ग्रन्थक्रमेण गच्छामः चेत् तत्र यदा तत्र समाधानं भवति गन्धप्रतीतेः कारणं किम् इति प्रश्नस्य यदि समाधानं भवति तदा सिद्धान्ति अपि स्वीकरोति इति चिन्तनं करणीयं। परन्तु यदा समग्ररूपेण पश्यामश्चेत् द्वयोः अपि स्वीकारः अस्ति।
अस्तु महोदय,
अस्तु अग्रे सरामः वा, इतोपि तत्र किञ्चित् स्पष्टीकरणीयमस्ति वा? अस्तु, भानसम्भवेन चित्रगन्ध अनङ्गीकार। इदानीं किञ्च नाम तत्र पुनः अवान्तरविरोधः नाम आक्षेपः, मुख्य आक्षेपः पुनः तत्र अवान्तर आक्षेपः पुनः नाम तत्र अन्योपि आक्षेपः वर्तते इति किञ्च इति पदेन क्रियते. किञ्च पुनः पूर्वपक्षे एव किञ्च उत्पन्नविनश्च घटादौ अव्याप्तिरिति चेत् न. इदानीं पूर्वपक्षी किं वदति इत्युक्ते किञ्च उत्पन्नविनश्च घटादौ अव्याप्ति इति एतावत्पर्यन्तं पूर्वपक्षिणः कथनं. किञ्च इति अभान्तर आक्षेपः. किञ्च एडिशनल् इति वक्तव्यं. किञ्च उत्पन्नविनश्च घटादौ अव्याप्तिः इति पूर्वपक्षी वदति. नाम यथा अस्माभिः पूर्वमपि दृष्टमासीत् खलु, उत्पन्नं द्रव्यं क्षणं निर्गुणं निष्क्रियं तिष्ठति इति उक्तम्. इदानीम् अवयवसुरभि असुरभि इति एकम् उदाहरणम्. अन्यत् उदाहरणं किम् इत्युक्ते, भोः तत्र त्यजतु सुरभि असुरभि, एतत् विवादग्रस्तं. तत्र केचन अङ्गीन कुर्युः, केचन वदेयुः, चित्रगन्धः अस्ति एवमेव. यदि स्पष्टं तत्र तादृशी परिस्थितिः नास्ति चेदपि इदानीम् इतोपि स्पष्टम् उदाहरणम् एकं वदामि, वदति पूर्वपक्षः. किम् उदाहरणम् इत्युक्ते, सरलमेव उदाहरणम्. उत्पन्नविनस्ते घटे सर्वथैव गन्धः न भवत्येव. इदानीम् अत्र न कापि समस्या अस्ति, सर्वैः सुलभं ज्ञायते. इदानीं सरलरूपेण ज्ञायते उत्पन्नविनस्ते घटे अव्याप्तिः कुतः इति चेत् तत्र गन्धः एव नास्ति. तत्र गन्धः नास्ति चेत् द्वितीयक्षणे गन्धस्य उत्पत्तिः भवति. तर्हि कुतः चेत् प्रथमक्षणे द्रव्यम् उत्पन्नं द्रव्यं क्षणं निर्गुणं निष्क्रियं तिष्ठति इति उक्तं. तर्हि प्रथमक्षणे गन्धः नास्ति, द्वितीयक्षणे घटः एव नष्टः. तर्हि तत्र गन्धस्य उत्पत्तिरेव न भवति, गन्धस्य उत्पत्तिः न भवति. परन्तु घटः तु आसीत् खलु, तत्तु द्रव्यमेव कार्य तत्र किम् इत्युक्ते, नाम इदानीं घटः तत्र पृथिव्यां न अन्तर्भवति वा? भवतः लक्षणं यत् कृतं गन्धवत्वं पृथिव्या लक्षणम्, इदानीम् उत्पन्नविनस्ते घटे गन्धः एव न आसीत्, तर्हि घटः न पृथिवी वा इति प्रश्नः. अव्याप्ति लक्षैकदेशे उत्पन्नविनस्ते घटे लक्षणस्य असत्वा अव्याप्तिदोषग्रस्तम् इदं लक्षणम् इति चेत्, इति चेत् न इति सिद्धान्ती वदति इदानीम्. इति चेत् न इति सिद्धान्तिनः कथनं. घटादौ अव्याप्ति इत्येतावत्पर्यन्तं पूर्वपक्षिणः चिन्तनम्, इति चेत् इति सिद्धान्तिनः चिन्तनम्. इति चेत् न, तादृशी परिस्थितिः नास्ति. यथा पूर्वम् उक्तमासीत् तथैव अत्रापि अस्ति. तत्र गन्धवती पृथिवी इत्यस्य अर्थः भिन्नः. अर्थः कीदृशः अर्थः करणीयः, विवक्षा कीदृशी अस्ति इत्युक्ते, गन्धसमानाधिकरण द्रव्यत्व अपरजातिमत्वस्य विवक्षितत्वात्. विवक्षा का? यदा मया तत्र ग्रन्थकारः सिद्धान्ती वदति, यदा मया गन्धवती पृथिवी उक्तं तदा तस्य वाक्यस्य विवक्षितः अर्थः मम किम् आसीत् इत्युक्ते, गन्धसमानाधिकरणद्रव्यत्व अपरजातिमत्वस्य विवक्षितत्वात्. नाम को वा अर्थः इत्युक्ते, गन्धसमानाधिकरणद्रव्यत्व अपरजातिमत्वस्य. वयं जानीमः पराजाति अपराजाति, द्रव्यत्व अपरा नाम द्रव्यत्वव्याप्य इति अर्थः. द्रव्यत्व अपर नाम द्रव्यत्वव्याप्य जातिमत्वस्य विवक्षितत्वात्. गन्धसमानाधिकरण द्रव्यत्वजातिमत्वस्य विवक्षितत्वात्. इदानीं पश्यामः, तर्हि तत्र द्वयोः अपि अत्र प्रथमम् उदाहरणं द्वितीयम् उदाहरणं प्रत्येकं पश्यामः. तत्र गन्धसमानाधिकरणद्रव्यत्व अपरजातिमत्वम् इति लक्षणे कृते उत्पन्नविनष्टे घटे लक्षणसमन्वयः भवति वा न वा? प्रथमं तत् पश्यामः. गन्धसमानाधिकरण द्रव्यत्व अपरजातिमत्वस्य विवक्षितत्वात् इत्युक्ते, गन्धसमानाधिकरण द्रव्यत्व अपराजाति किं? पृथ्वीत्वजाति एव खलु, पृथ्वीत्वजाति. तर्हि गन्धसमानाधिकरण द्रव्यत्व अपरजातिमत्वं यः वदामः तत्र उत्पन्नविनस्य घटे अव्याप्तिदोषनिवारणं भवति वा न वा इति तत्र सरला भगिनी वक्तुमिच्छति वा? अत्र लक्षणस्य गन्धसमानाधिकरण द्रव्यत्व अपरजातिमत्वं यदा वदामः, एतत् लक्षणं वदामः, एतस्य लक्षणस्य समन्वयः उत्पन्नविनस्के घटे भवति वा न वा उत्पन्नविनष्टः विनष्टः घटः एतस्य लक्षणस्य लक्ष्यं भवति वा न इति तत्र समन्वयः भवति वा न वा
अहं चिन्तयामि भवति गन्धस्य समानाधिकरणं पृथ्वी अस्ति द्रव्यस्य च जातिः अस्ति यद्यपि पृथ्वी भवान् प्रथमे क्षणे निर्गुणं तिष्ठति किन्तु तत्र आगच्छति
तर्हि तद् लक्षणसमन्वयस्य प्रक्रिया कीदृशी इत्युक्ते गन्धसमानाधिकरणद्रव्यत्वव्याप्य अपरजाति पृथिवीत्वजाति पृथिवीत्वजातेः उत्पन्नविनस्ते घटे सत्त्वात् न अव्याप्तिः एवं लक्षणसमन्वयः करणीयः लक्षणसमन्वयस्य काचन रीतिः वर्तते गन्धसमानाधिकरणद्रव्यत्वव्याप्य अपरजाति पृथिवीत्वजाति सा जाति उत्पन्नविनस्ते तस्याः जातेः उत्पन्नविनस्य घटे सत्त्वात् न अव्याप्तिः एवं सत्त्वात् लक्षणसमन्वयः एवं करणीयं तथैव गन्धसमानाधिकरणद्रव्यत्व अपरजाति पृथिवीत्वजाति
सा जाति उत्पन्न विनष्ट घटे अव्याप्ति न अव्याप्ति न
न भवति तथा वक्तुं शक्यते अथवा समन्वयं स्वीकृत्य वदामश्चेत् गन्धसमानाधिकरणद्रव्यत्व अपरजाति पृथ्वीत्वजाति तस्याः जातेः उत्पन्नविनस्य घटे सत्त्वात् लक्षणसमन्वयः एवं वक्तुं तथैव गन्धसमानाधिकरणद्रव्यत्व
अत्र उदाहरणं समीचीनं नास्ति इति भाति किमर्थं चेत् लक्षणवाक्यमस्ति गन्धवती पृथिवी घटः पृथ्वीत्वजात्याम् एव अस्ति खलु अतः उत्पन्नविनष्टे घटे अपि गन्धवत्वं भवति एव अतः गन्धवत्वम् इति यदा पृथिवी उत्पन्नं आसीत् तथा द्वितीयक्षणे गन्धवत्वम् अपि प्रायः उत्पन्नम् आसीत् अनन्तरं घटकार्यं भिन्नक्षणे अभवत् अतः गन्धवत्वं पूर्वमेव आसीत् एव
तत्र नाम अत्र प्रश्नः कः इत्युक्ते घटः पृथिवी वा न वा इति प्रश्नः घटः नवी तत्र अवयविद्रव्यं भिन्नद्रव्यम् इति उच्यते अवयविद्रव्यम् अवयवात् भिन्नः इति उच्यते न्यायचिन्तने खलु तत्र इदानीं न स्मर्यते तत्र श्लोकः वर्तते आरम्भवादः कणभक्ष्यपक्षः सङ्घातवादस्तु वदन्तपक्षः साङ्ख्यादिपक्षः परिणामवादो विवर्तवादस्तु वेदान्तपक्षः इति श्लोकः वर्तते तत्र संक्षेपशारीरिकम् इति न स्मर्यते इदानीं भास्सर्वज्ञस्य तत्र ग्रन्थः तस्मिन् ग्रन्थे आरम्भवादः कणभक्ष्यपक्षः इति कणभक्ष्य नाम कणम् अस्ति कणादः कणः नाम नैयायिकानां वैशेषिकाणां मते उत्पन्न सर्वदैव आरम्भः भवति नवीनद्रव्यस्य आरम्भः भवति इति तेषां विशेषचिन्तनं नैयायिकानां वैशेषिकाणां च वर्तते अतः तेषां तत्र दर्शनस्य नाम एव आरम्भवादः नवीनद्रव्यस्य उत्पत्तिः भवति घटस्य एवं चिन्तनमस्ति भगिनि तर्हि नवीनद्रव्यस्य घटस्य उत्पत्तिः भवति चेत् घटे गन्धः अस्ति वा न वा इदानीम् अवयवगन्धस्य तत्र प्रश्नः नास्ति अवयवगन्धः तु प्रथममेव आसीत् सत्यमेव परन्तु नवीनद्रव्यं घटस्य उत्पत्तिः यदा भवति तस्मिन् घटे गन्धः अस्ति वा न वा इति
पृष्टवती
आमां तत्र घटे अपि इदानीं सत्यमेव द्रव्यत्व अपरजाति पृथ्वीत्वजाति घटे अपि गन्धवती इत्यस्य इदानीं ग्रन्थकारः किं वदति इत्युक्ते भोः गन्धवती पृथिवी इति उक्तं तत्र मम विवक्षा तत्र का इत्युक्ते तत्र मम गन्धवती इति कथनस्य मम आशयः कः इत्युक्ते गन्धसमानाधिकरणद्रव्यत्व अपरजातिमत्वम् इति मम आशयः. यदि तादृशः आशयः अस्ति चेत् तादृशं लक्षणं कृतं चेत् न कापि समस्या. उत्पन्नविनस्य घटे अपि प्रतिलिप्तजाति अस्ति एव. तत्र अवयवि सुरभि सुरभि अवयव आरभ्ये द्रव्ये अपि प्रतिलिप्तजाति अस्ति एव. अतः अव्याप्तिदोषग्रस्तं न नास्ति मम लक्षणं. मम विवक्ष्यानुगुणं चिन्तनं करणीयम् इति ग्रन्थकारः वदति. अस्तु, इदानीं किञ्चिदिव एतदेव तत्र सन्ध्या भगिनी पुनः स्वशब्दैः वदति वा एकवारं तत्र गन्धसमानाधिकरणद्रव्यत्वे तत्र कथं भवति समन्वयः एकवारं वदति वा.
तत्र गन्धसमानाधिकरणद्रव्यत्व अपरा जातिः तत्र यदस्ति तत्र गन्धसमानाधिकरणम् इति तत्र पृथिवी अस्ति. तर्हि गन्धसमानाधिकरणद्रव्यत्व द्रव्यत्वं नास्ति, पृथिवीत्वं द्रव्यत्वस्य अपेक्षया अपरा जातिः अस्ति. एषा जातिः पृथिवीत्वम् इति जातिः उत्पन्नविनष्ट घटे प्रथमक्षणे अस्ति एव. अतः तया रीत्या तत्र सामानाधिकरण्यम् आनीतं, तत्र लक्षणसमन्वयः तादृशं कृतम् अस्ति. तत्र पृथिवीत्वम् अस्ति उत्पन्नविनष्ट घटे इति कृत्वा.
सत्यमेव. अस्तु, अत्र तर्हि किञ्चिदिव चिन्तनं कुर्मः. अत्र कदाचित् ग्रन्थेषु तत्र विस्तृतरूपेण इतोपि तत्र बुद्धिवैशद्यार्थम् अस्माकं व्युत्पत्तिः ज्ञानं जायत इति कृत्वा बहु किमपि उक्तं भवति तत्र टीकाग्रन्थेषु. अत्र गन्धसमानाधिकरणद्रव्यत्व अपरजाति, द्रव्यत्व अपरजाति तस्य को वा अर्थः? द्रव्यत्व अपरजाति इत्युक्ते द्रव्यत्वव्याप्यजाति इति अर्थः इति टीकाकाराः वदन्ति. द्रव्यत्व अपरजाति इत्युक्ते द्रव्यत्वव्याप्यजाति. अस्तु, तर्हि द्रव्यत्वव्याप्यजाति एव भवेत्. परन्तु तत्र समस्या भवति. तत्र द्रव्यत्वव्याप्यजातिमत्वं वदामश्चेत् तत्र समस्या भवति. कीदृशी समस्या इत्युक्ते द्रव्यत्वव्याप्यं द्रव्यत्वं स्वयमपि भवति. द्रव्यत्वव्याप्यं द्रव्यत्वं स्वयमपि द्रव्यत्वव्याप्यं भवति. कुतः इति चेत् तत्र व्याप्यस्य अत्र नाम तत्र चिन्तनं किम् इत्युक्ते व्याप्यस्य स्वरूपं कीदृशम् इत्युक्ते तत्र द्रव्यत्वम् इति उक्तं द्रव्यत्वव्याप्यं नाम द्रव्यत्वशून्यस्थले द्रव्यत्वशून्यस्थले आवृत्तित्वमेव द्रव्यत्वव्याप्यत्वम्. द्रव्यत्वशून्यस्थले आवृत्तित्वम्, इदानीं द्रव्यगुण अस्ति, गुणे द्रव्यत्वशून्यस्थले गुणे आवृत्तित्वं, द्रव्यत्व शून्यस्थले आवृत्तित्वमेव द्रव्यत्वव्याप्यत्वं. तर्हि द्रव्यत्वव्याप्यत्वं पृथिवीत्वे वर्तते. कुतः इति चेत् पृथिवीत्वं तत्र द्रव्यत्वशून्यस्थले न भवति. द्रव्यत्वशून्यस्थले पृथिवीत्वस्य आवृत्तित्वमेव वर्तते. अतः पृथिवीत्वं द्रव्यत्वव्याप्यम्. इदानीं पश्यामः किं द्रव्यत्वं द्रव्यत्वव्याप्तिं व्याप्यं भवति वा न वा इत्युक्ते द्रव्यत्वं द्रव्यत्वव्याप्यं भवति. कुतः इति चेत् द्रव्यत्वशून्यस्थले द्रव्यत्वं न वर्तते. तर्हि द्रव्यत्वशून्यस्थले द्रव्यत्वं न वर्तते कृत्वा द्रव्यत्वम् अपि द्रव्यत्वव्याप्तम् इति जातम्. इदानीं तर्हि द्रव्यत्वव्याप्यजाति इत्युक्ते द्रव्यत्वजातिः. द्रव्यत्वं जले अपि अस्ति, अतः जले अतिव्याप्ति. अतः किं क्रियते इत्युक्ते अत्र व्याप्यत्वं तत्र द्रव्यत्वव्याप्यत्वं द्रव्यशून्य अधिकरण अवृत्तित्वरूपं व्याप्यत्वं न स्वीक्रियते. द्रव्यत्वन्यूनदेशवृत्तित्वरूपं व्याप्यत्वम् अत्र स्वीकृतम्. द्रव्यत्व न्यूनदेशवृत्तित्वव्याप्यत्वं तर्हि द्रव्यत्व न्यूनदेश इति वृत्तित्वं वदामः चेत् द्रव्यत्वं स्वयमेव द्रव्यत्व न्यूनदेशवृत्तिः न भवति समानदेशवृत्तिः भवति द्रव्यत्वं स्वयमेव अतः द्रव्यत्वं तत्र नान्तर्भवति इति कृत्वा पुनः दोषस्य परिहारः नाम न्यूनदेशवृत्तित्वरूपं व्याप्यत्वं स्वीक्रियते भिन्न तत्तद् भिन्न रूपं व्याप्यत्वं न स्वीक्रियते एतत् स्पष्टम् अस्ति वा न वा तद् रक्षा भगिनी किञ्चित् वदति वा अस्मिन् विषये एतत् किञ्चित् विवरणं करोति वा
आं महोदय प्रयत्नं करोमि अत्र उत्पन्नविनष्टघटादौ अव्याप्ति इत्यस्य आक्षेपस्य निवारणं कृतं यथा सन्ध्या भगिनी उक्तवती गन्धसामानाधिकरण द्रव्यत्वापरजातिमत्वं द्रव्यत्वस्य अपेक्षया या जातिः अपरा अस्ति सा जातिः वर्तते उत्पन्नविनष्टे घटे अपि इति कृत्वा तन्निवारितम् इति चेत् पुनः आक्षेपः अस्ति यत् द्रव्यत्वशून्यत्वस्थले नाम गुणादौ यत्र द्रव्यत्वमेव नास्ति तत्र अवृत्तित्वम् एव द्रव्यत्व अपरजातिमत्वरूपेण अस्ति इति तादृश आक्षेपः इति चेत् द्रव्यत्व अपर इत्यनेन द्रव्यत्व अवृत्तित्वम् अथवा
द्रव्यत्वं किञ्चिदेव सोपानेन वदामः चेत् द्रव्यत्व अपरजाति नाम द्रव्यत्वव्याप्या जाति द्रव्यत्व अपर नाम किम् इत्युक्ते व्याप्यं परन्तु व्याप्यं नाम किं पुनः प्रश्नः उदेति व्याप्यं नाम किम् इत्युक्ते नाम द्रव्यत्वव्याप्यं नाम द्रव्यत्वशून्य अधिकरण अवृत्तित्वरूपं व्याप्यत्वं न स्वीकर्तव्यं कीदृशं तत्र व्याप्यत्वं स्वीकर्तव्यम् इत्युक्ते द्रव्यत्वन्यूनदेशवृत्तित्वरूपं व्याप्यत्वं स्वीक्रियते चेत् द्रव्यत्वव्याप्या जाति भवति पृथिवीत्वजाति न तु जलत्वजातिः न तु द्रव्यत्वजातिः स्वयम् अतः द्रव्यत्वजातिं स्वीकृत्य अतिव्याप्तिः न भवति न्यूनदेशवृत्तित्वरूपं व्याप्यत्वं स्वीक्रियते चेत् परन्तु द्रव्यत्वशून्य अधिकरण अवृत्तित्वरूपव्याप्यत्वं स्वीक्रियते चेत् तत्र समस्या अतः न्यूनदेशवृत्तित्वं वृत्तित्वरूपं व्याप्यत्वं स्वीक्रियते
महोदय
स्पष्टमस्ति वा भगिनि
आम् स्पष्टमस्ति महोदय व्याप्यत्वम् इत्युक्ते किम् इति उक्तवान् अधुना भवान् अवृत्तित्वं व्याप्यत्वं नास्ति अपि तु न्यूनदेशवृत्तित्वमेव व्याप्यत्वरूपेण स्वीकृत्य लक्षणसमन्वयः करणीयः इति खलु
सत्यं सत्यं तथैव
किन्तु महोदय प्रश्नः अस्ति मम अहं चिन्तयन्ती आसं किमर्थं द्रव्यत्वशून्यत्वस्थलस्य विचारः इति यतोहि एकवारं यदा द्रव्यत्वमेव नास्ति तर्हि द्रव्यत्वस्य व्याप्यः कः इत्यस्य चिन्तनं किमर्थम् इति
द्रव्यत्वस्य व्याप्य चिन्तनं किमर्थमिति केवलं तत्र एवं चिन्तनं कुर्वन्ति टीकाग्रन्थेषु तत्र अन्ये जनाः अपि तत्र इदानीं द्रव्यत्वव्याप्यं द्रव्यत्व अपरजाति इत्यस्य को वा अर्थः इति ते पृच्छन्ति इदानीम् उक्तं तत्र आचार्याः वदन्ति स्म तत्र न्यायशास्त्रे किमपि अधिकारितं न वर्तते इति वदन्ति स्म तथैव अत्र अपरजातिमत्वम् इति उक्तं भोः अत्र विचारः कः एव एतदपि विचारितं भवेत् खलु तर्हि वदतु इदानीं द्रव्यत्व अपरजाति नाम किम् इति कोऽपि प्रश्नं पृच्छति तर्हि वदति भोः द्रव्यत्व अपरजाति नाम द्रव्यत्वव्याप्या जाति इदानीं पुनः पृच्छति भोः व्याप्यं व्याप्या जाति इति उक्तं तस्य को वा अर्थः पुनः वदतु अविचारितं किमपि न भवेत् इदानीं द्रव्यत्वव्याप्यं नाम किम् इत्युक्ते व्याप्यस्य तर्हि तत्र प्रकारद्वयं वर्तते नाम तत्र कथं वा निरूपणं कृतम् इत्युक्ते तत्र द्वेधा निरूपणं कृतं प्रथमम् अस्ति नाम इदानीं तत्र प्रायः व्याप्यव्यापकभावः कुत्र वर्तते इत्युक्ते यदा अनुमानस्थले इदानीं साध्याभाववद् अवृत्तित्वम् इदानीं तत्र पूर्वपक्षिणः व्याप्तेः स्वरूपं साध्याभाववत् अवृत्तित्वं तर्हि गन्धः साध्याभाववती वर्तते वा न वा इत्युक्ते नाम गन्धः न तत्र पर्वतवह्निमान् धूमात् इति अनुमानस्थले धूमः व्याप्यः वह्निः व्यापकः इति वदामः, परन्तु तस्य लक्षणं किं, व्याप्यं नाम गन्धः किमर्थं व्याप्यम् इति वदति इत्युक्ते तत्र साध्याभाववद् अवृत्तित्वं नाम बह्निः अभाववद् अवृत्तित्वम् एव तत्र व्याप्यत्वम् इति उच्यते. बह्निः अभाववद् अवृत्तित्वं, बह्निः अभाववद् जलहृदादि जलहृदादिनिरूपितवृत्तित्वं मीनशैवालादौ अवृत्तित्वम् अस्ति धूमेः इति कृत्वा तत् साध्याभाववद् अवृत्तित्वमेव व्याप्यत्वम् इति तत्र उच्यते. अत्रापि तथैव, अत्र द्रव्यत्वव्याप्यं तथा बह्निः व्याप्यम् इत्युक्ते बह्निः अभाववद् अवृत्तित्वं, द्रव्यत्वव्याप्यम् इत्युक्ते द्रव्यत्व अभाववद् अवृत्तित्वम्.
अस्तु, अवगतं महोदय. तर्हि व्याप्यत्वम् इत्यस्य विवरणं द्विधा कर्तुं शक्यते, अवृत्तित्वस्य आधारेण अपि च न्यूनवृत्तित्वस्य आधारेण इति.
आमां, तथा परन्तु यदा अनुमानस्थले पठामः तत्र हेतुसाध्ययोः व्यापकभावः तत्र तस्य निर्णयः सम्यक् रूपेण कृतः, एवम् वक्तव्यं, तथा द्विधा चिन्तनं न करणीयम् एवं, परन्तु सामान्यरूपेण अत्र तादृशं चिन्तनं वर्तते. द्विधा अपि तत्र विभागः कृतः चेदपि तत्र प्रथमं न स्वीकर्तव्यं, न्यूनदेशवृत्तित्वरूपं व्याप्यत्वम् अत्र स्वीकर्तव्यं, केवलं तावदेव चिन्तनम्. अस्तु, तर्हि समयः अपि जातः, अनेन विरमामः, अग्रिमे वर्गे मिलामः. नमस्कारः, धन्यवादः.
धन्यवादः. नमस्कारः महोदय, धन्यवादः.